सौन्दर्यलहरि श्लोक 44 तनोतु क्षेमं नस्तव वदन सौन्दर्यलहरी परिवाहस्रोतः सरणिरिव सीमन्तसरणिः वहन्ती सिन्दूरं प्रबलकबरी भारतिमिरः द्विषां वृन्दैः बन्दीकृतमिव नवीनार्ककिरणम् श्लोक 45 अरालैः स्वाभाव्यात् अलिकलभसश्रीबिरलकैः परीतं ते वक्त्रं परिहसति पङ्गेरुहरुचिं दरस्मेरे यस्मिन् दशनरुचि किञ्चल्गरुचिरे सुगन्धौ माध्यन्ति स्मरदहन चक्षुर्मधुलिहः श्लोक 46 ललाटं लावण्यद्युतिविमलमाभाति तव यत् द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलं विपर्यासन्यासात् उभयमपि सम्भूय च मितः सुधालेपस्यूतिः परिणमति राकाहिमकरः श्लोक 47 ब्रुवौ भुग्ने किञ्चित् भुवन भयभङ्गव्यसनिनी त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे श्लोक 48 अहस्सूते सव्यं तव नयनमर्कात्मकतया त्रिया मां वामन्ते सृजति रजनीनायकतया तृतीया ते दृष्टिः दरदलितहेमाम्बुजरुचिः समादत्ते सन्ध्यां दिवशनिशयोः अन्तरचरीम् श्लोक 49 विशाला कल्याणी स्फुटरुचिरयोध्याकुवलयैः कृपाधाराधारा किमपि मधुरा भोगवतिका अवन्ती दृष्टिस्थे बहुनगरविस्तारविजया ध्रुवं तत्तन्नाम व्यवहरणयोग्या विजयते श्लोक 50 कवीनां सन्दर्भस्तपगमकरन्दैकरसिकं कटाक्षव्याक्षेप भ्रमरकलभौ कर्णयुगलम् अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरलौ असूया संसर्गात् अलिकनयनं किञ्चिदरुणम् श्लोक 51 शिवे शृङ्गारार्ध्रां तदिदरचने कुत्सनपरः सरोषा गङ्गायां गिरिशचरिते विस्मयवती हराहिभ्यो भीता सरसिरुहसौभाग्यजननी सखीषु स्मेराते मयि जननि दृष्टि श्लोक 52 गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि ददति पुराम्बेतुः चित्तप्रशमरसविद्रावणपले इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके तवा कर्णाकृष्ट स्मरशरविलासं कलयतः श्लोक 53 विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया विभाति त्वन्नेत्र त्रितयमिदं ईशानदयिते पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान् रजसत्त्वं बिभ्रत्तमयिति गुणानां त्रयमिव श्लोक 54 पवित्रीकर्तुं नः पशुपतिपराधीनहृदये दयामित्रैर्नेत्रैः अरुणधवलश्यामरुचिभिः न दशोणो गङ्गा तपनतनयेति ध्रुवममुं త్రయాణాం తీర్థానాం ఉపనయతి సంభేదమనగం.